अथाष्टाविंशः सर्गः। साराक्षसेन्द्रस्य वचो निशम्य तद्रावणस्य प्रियमप्रियार्ता। सीता वितत्रा स यथा वनान्ते सिंहाभिपन्ना गजराजकन्या। साराक्षसी मध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च। कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललापसीता। सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः। यत्राहमेवं परिभर्त्स्यमाना जीवामि यस्मात् क्षणमप्यपुण्या। सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे। विदीर्यते यन्न सहस्रधाद्यवज्राहतं शृङ्गमिवाचलस्य। नैवास्ति नूनं मम दोषमत्र वध्याहमस्य प्रियदर्शनस्य। भावन्न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय। तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः। नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैश्चितैश्चेत्स्यति राक्षसेन्द्रः। दुःखं बतेदं ननु दुःखितायामासौ चिरायाभिगमिष्यतो द्वौ। बद्धस्य वध्यस्य यथा निशान्ते राजोपरोधादिवतस्करस्य। हा राममहालक्ष्मणः सुमित्रे हा राममातः सह मे जनन्यः। एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता। तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ। नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन। नूनं सकालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम्। यत्रार्यपुत्रौ विससर्जमूढा रामानुजं लक्ष्मणपूर्वजं च। हा राम सत्यव्रतदीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्त्रा। हा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम्। अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे। पतिव्रता त्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम्। मोघो हि धर्मश्चरितो ममायं तथैकपत्नी त्वमिदं निरर्थकम्। या त्वान्न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा। पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च। स्त्रीभिस्तु मन्ये विपुले क्षणाभिः संरंस्यसे वीतभयः कृतार्थः। अहं तु राम त्वयि जातकामाचिरं विनाशाय निबद्धभावा। मोघं चरित्वाथ तपोव्रतं च त्यक्ष्यामि धिग्जीवितमल्पभाग्याम्। सञ्जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि। विषस्य दाता न तु मेऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य। शोकाभितप्ता बहुधा विचिन्त्य सीताथ वेणीग्रथनं गृहीत्वा उद्बध्य वेण्यद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम्। उपस्थिता सा मृदु सर्वगात्री शाखां गृहीत्वा च नगस्य तस्य। तस्यास्तु रामं परिचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्याः। तस्या विशोकानि तदा बहूनि धैर्यार्जितानि प्रवराणि लोके। प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्यपलक्षितानि। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टाविंशः सर्गः।